त्वामेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूढ गरिमाणम् अपारयन्ती माता निधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ताबद्विदूरम् उपकर्णितघोरघोष व्याजृम्भिपांसुपटली परिपूरिताशः वात्याबपुस्सकिल दैत्यवरः तृणावर्ताख्यो जहार जनमानसहारिणं त्वाम् उद्दामपांसुतिमिराहत दृष्टिपाते द्रष्टुं किमपि अकुशले पशुपाललोके हा बालकस्य किमिति तदुपान्तमाप्ता माता भवन्तमविलोक्य भृशं रुरोद तावत्स दानबबरोऽपि च दीनमूर्तिः भावत्कभार परिधारणलूनवेगः सङ्कोचमाप तदनु क्षतपांसु घोषे घोषे व्यतायत भवज्जननी निनादः रोदोपकर्णनवशात् उपगम्यगेहं क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः त्वां दानवस्तु अखिलमुक्तिकरं मुमुक्षुः त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् रोदाकुलास्तदनु गोपगणाः बहिष्ठपाषाणपृष्ठभुवि देहम् अतिस्थविष्ठं प्रेक्षन्त हन्त निपतन्तम् अमुष्यवक्षसि अक्षीणमेव च भवन्तम् अलं हसन्तं ग्रावप्रपातपरिपिष्टगरिष्ठदेह भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् आघ्नानम् अम्बुजकरेण भवन्तमेत्या गोपादधुः गिरिवरादिवनीलरत्नम् एकैकमाशु परिगृह्य निकामनन्दन् नन्दादिगोप परिरब्धविचुम्बिताङ्गम् आदातु काम परिशङ्कित गोपनारी हस्ताम्बुजप्रपतितं प्रणुमो भवन्तं भूयोऽपि किन्नु कृणुमः प्रणतार्थिहारी गोविन्द एव परिपालयतात् सुतं नः इत्यादि मातरपितृप्रमुखैः तदानीं सम्प्रार्थितः त्वदवनाय विभो त्वमेव वातात्मकं दनुजमेवम् अयि प्रधून्वन् वातोद्भवान् मम गदान् किमु नोद्धुनोषि किं वा करोमि पुनरपि अनिलालयेषा निःशेषरोगशमनं मुहुः अर्थये त्वाम् ॐ तत्सदिति श्रीमन्नारायणीये त्रिचत्वारिंशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।